एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभायाः गतदिवसीयोपवेशेन गत विक्रमाब्दीयं लोकसेवायोग विधेयकं सर्वसम्मत्या पारितीकृतं वर्तते। उपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा डाक्टर शिवमाया तुम्बा हाङफे विधया प्रस्तुतं विधेयकमेतत् सर्वसम्मत्या पारितम् अभवत्। विधेयकस्य सम्बन्धे सांसदैः उत्थापितान् प्रश्नान् उत्तरयन्ती मन्त्री डाक्टर तुम्बा हाङफे संघीय सर्वकारीय सेवां स्वच्छां निष्पक्षां च सार्वजनिक सेवाया सक्रियतायै पारदर्शितायै च विधेयकेन भूमिका निर्वक्ष्यते इति विश्वासं व्यक्तवती। तत्पूर्वम् उपवेशस्य विशेष समये सांसदा नागरिकता संशोधन कोरोना विषाणु अमेरिकीय सहायता परियोजना स्वास्थ्य सामग्री क्रयण प्रवृत्तिषु सामयिक विषयेषु विचारं प्राकटयन्। प्रतिनिधिसभायाः अपरोपवेश अस्यैव आषाढस्य सप्तदशे दिवसे एकवादने पुनरवस्था। राष्ट्रिय सभाया ह्यस्तनोपवेशे सांसदैः जनतायां भ्रमप्रसारणत्वेन संसदि अभिव्यक्तेः अप्रदानस्य विषये बलं दत्तमस्ति। उपवेशे सांसदः डाक्टर बेदुराम भूषालः संविधानस्य अनुसारेण नागरिकता सम्बद्धस्य विधेः निर्माणम् अग्रे वर्धितम् अस्ति इत्यतः अराजनीतिक निराधार दायित्व विहीनानां तर्काणाम् उपस्थापने आपत्तिं प्रकटितवान्। उपवेशे सांसदाः प्रकाश पन्त भगवती न्यौपाने शेखर कुमार सिंह रामनारायण बिडारी च विभिन्नेषु विषयेषु धारणां प्राकटयन्। राष्ट्रियसभायाः ह्यस्तनोपवेशेन गत विक्रमाब्दीयं प्रतिलिप्यधिकार प्रथम संशोधन विधेयकं सूत्रगतं विमृष्टुं विधायन व्यवस्थापन समितौ प्रेषितं वर्तते। राष्ट्रियसभायाः अपरोपवेश स्वदिवा एकवादने पुनर्वस्था। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य स्थायी समितेः उपवेशः अद्य पूर्वाह्नस्य एकादशवादने वसति। प्रधानमन्त्री निवासे बालवाटार स्थाने उपविश्य माने अस्मिन् उपवेशे नेकपा दलस्य अध्यक्षेण प्रधानमन्त्रिणा च केपी शर्मा ओलिना दलस्य अपराध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन च राजनैतिक प्रतिवेदनं प्रस्तूयते। उपवेशे स्थायी समितेः पञ्चचत्वारिंशता सदस्यैः सहितानाम् आमन्त्रित सदस्यानां रूपेण अनुशासन लेखा निर्वाचनायोग परामर्शन परिषद ज्येष्ठ कम्युनिष्ट मञ्चानां संयोजकानां च उपस्थितिः भवति। सर्वकारेण स्थानीय पूर्वाधार विकास सहकार्य कार्यक्रमस्य अवशिष्ट व्यय सम्बद्धं वित्तं कोविड उनविंशतेः निरोधन नियन्त्रणोपचाराणां कृते व्ययीकर्तुं सर्वे स्थानीय स्तराः निर्दिष्टाः वर्तन्ते। संघीय विषय सामान्य प्रशासन मन्त्रालयेन स्थानीय पूर्वाधार कार्यक्रमस्य एतद् विक्रमाब्दीय सञ्चालन कार्यविधेः नियमावल्याः तृतीय संशोधनं विधाय वर्तमानार्थिक वर्षस्य कार्यक्रमायोजनानां कृते विनियोजितं परम् अद्यावधि न व्ययीकृतं वित्तं कोविड उनविंशतेः निरोधन नियन्त्रणयोः कृते व्ययीकर्तुं सर्वे स्थानीय स्तराः निर्दिष्टाः सन्ति। गृहमन्त्रालयेन उपत्यकायाः बहिः स्थानेभ्यः काष्ठमण्डपं प्रविष्टानां जनानां कृते चतुर्दश दिनानि यावत् गृहेषु एव सुरक्षणावासनस्य कृते त्रयाणामेव जनपदानां प्रमुखजनपदाधिकारिभ्यः पत्रं प्रेषितं वर्तते। पश्चात्तन समये गृह धनिभिः पीसीआर नाम्ना बहुलक श्रृंखला प्रतिक्रिया विधिना कोरोना विषाणोः परीक्षणेन विना गृह प्रवेशाय अनुमतिर्न दत्तेति निगद्य शुक्रराज तापीय संक्रामक रोग चिकित्सालये प्रतिदिनं सहस्रादपि अधिक जनाः प्राप्यमाणाः सन्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन कोविड उनविंशतेः कृते क्रियान्वितस्य मार्गनिर्देशनस्य अनुसारेण काष्ठमण्डपं प्रविवीक्षुणां जनानां कृते चतुर्दश दिनानि यावत् गृहेषु सुरक्षणावासे निवासनाय लक्षणेषु दृष्टेषु सत्स्वेव चिकित्सालयम् आगमनाय च व्यवस्थां विधातुं गृहमन्त्रालयेन काष्ठमण्डप भक्तपुर ललितपुराणां प्रमुख जनपदाधिकारिभ्यः पत्रं प्रेषितमस्ति। गतदिने अतिरिक्तेषु पञ्चशते अष्टात्रिंशति च जनेषु कोरोना विषाणो पुष्ट्या सहैव नेपाले संक्रान्तानां जनानां समग्र संख्या दश सहस्राणि नवनवतिश्च प्राप्ता वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य गतदिवसीय नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डाक्टर जागेश्वर गौतमः विभिन्नासु प्रयोगशालासु विहिते परीक्षणे गतदिने अतिरिक्तेषु शतचतुष्टय अष्टचत्वारिंशति च पुरूषेषु नवत्यां महिलासु च संक्रमणं पुष्टिभूतम् इति अज्ञापयत्। अधुनावधि षट् सप्ततेर् जनपदानाम् नवसहस्रेषु शते पञ्चदशसु च पुरुषेषु नवशते चतुरशीत्याम् च महिलासु च संक्रमणम् पुष्टिभूतम् वर्तते। एवमेव कोरोना विषाणोः संक्रमणस्य पुष्टिभूतस्य दैलेख जनपदस्य दुल्लु नगरपालिकायाः तृतीयवडा क्षेत्रस्य पञ्चचत्वारिंशत् वर्षीयस्य पुरुषस्य सोमवासरस्य सायम् भूतस्य मृत्योः पश्चात् संक्रमणानन्तरं मृतानां जनानां संख्या चतुर्विंशतिः प्राप्ता वर्तते। अस्यैव आषाढस्य चतुर्थे दिवसे सुर्खेतवर्तिनी प्रादेशिक चिकित्सालये विहिते परीक्षणे कोरोना संक्रमणं पुष्टिभूतं। तदनु तस्यैव चिकित्सालयस्य एकान्तवासे उपचारस्य क्रमे जनसौ अम्रियत इति मन्त्रालयो ज्ञापयति। असौ क्षयरोगस्य दुःश्वसनस्य च रुग्णः आसीदिति मन्त्रालयस्य प्रवक्ता प्राध्यापक डाक्टर गौतमः अबोधयत्। एवमेव गतदिने अतिरिक्ताः षट् सप्ततिर् जना कोरोना विषाणो संक्रमणेन मुक्ताः अभवन्। एतदनुसारेण अधुनावधि संक्रमणात् मुक्ताः सन्ताग्र्यम् प्रत्यावृतानां जनानां समग्र संख्या सहस्रद्वयं शतद्वयं चतुर्विंशतिश्च प्राप्ता वर्तते। इति समाचारः।